इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। लोकसभा निर्वाचनस्य चतुर्थ चरणस्य प्रचाराभियानं तीव्रतां प्राप्नोति, यतोहि दिनद्वयमेव अवशिष्टं वर्तते। प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितं यत् जाति सम्प्रदाय धर्माणामाधारे कोऽपि भेदभावः नैव भवितव्यः। अद्य सर्वोच्चन्यायालयेन मद्यनीति प्रवञ्चना सम्बन्धे जाते प्रकरणे दिल्ल्याः मुख्यमन्त्रिणे अरविन्द केजरीवालाय एकविंशतिः दिवसेभ्यः अल्पकालिक मुक्तिः प्रदत्ता। केरलतः आवर्त देशेभ्यः प्रचल्यमाणाः एयर इंडिया एक्सप्रेस विमान सेवाः अद्यापि बाधिताः, यद्यपि कर्मचारी विमान सेवा प्रबन्धनयोः च मध्ये पारस्परिकी मन्त्रणापि समनुष्ठिता। अपि च क्रीडावार्तायाम् आईपीएल इत्यस्यां क्रिकेट प्रतिस्पर्धायाम् अद्य अहमदाबादस्य नरेन्द्र मोदी क्रीडांगणे गुजरात टाइटन्स चेन्नई सुपर किंग्स दलयोः मध्ये स्पर्धा भविष्यति। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य चतुर्थ चरणस्य प्रचाराभियानं तीव्रतां प्राप्नोति, यतोहि दिनद्वयमेव अवशिष्टं वर्तते। अस्मै चरणाय मतदानं अस्य मासस्य त्रयोदश दिनांके 96 आसनेभ्यः नवराज्येषु एकस्मिन् च केन्द्रशासित प्रदेशे मतदानानि सम्पाद्यन्ते। आन्ध्रप्रदेशस्य 25, तेलंगानायाः 17, उत्तरप्रदेशस्य 13, महाराष्ट्रस्य 11, मध्यप्रदेशस्य पश्चिमबंगस्य च 8, बिहारस्य 5, झारखण्ड ओडिशयोः 4, जम्मूकश्मीरस्य च एकस्मै आसनाय मतदानम् अस्मिन्नेव चरणे समनुष्ठीयते। वैविध्यानां राजनीतिक दलानां सुप्रसिद्ध नेतारः देशस्य विभिन्नेषु भागेषु नैर्वाचनिक जनसभाः सम्पाद्यन्ति। प्रधानमन्त्री भाजपेति दलस्य च वरिष्ठनेता श्रीमोदी महाराष्ट्र राज्यस्य आदिवासी संख्यके क्षेत्रे नन्दूरवार जनपदे भाजपा दलस्य प्रत्याशिने हीना गाविताय एकां जनसभां सम्बोधयिष्यति। एतदतिरिच्य असौ नारायणपेट हैदराबाद नगरयोः अद्य जनसमूहमेकं वक्ष्यति। अद्य सायं हैदराबादस्य एलबी क्रीडांगणे समायोक्ष्यमाणा सभा तेलंगाना राज्ये श्रीमोदिनः अन्तिमा नैर्वाचनिक जनसभा भवेदिति। नैर्वाचनिक प्रचारावधौ प्रथमवारं समाजवादी पार्टी प्रमुखः अखिलेश यादवः, कांग्रेस दलस्य च पूर्वाध्यक्षः राहुल गांधी अद्य संयुक्त रूपेण कन्नौज कानपुर लखनऊ नगरेषु जनसभाः सम्बोधयिष्यतः। प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितं यत् जाति सम्प्रदाय धर्माणामाधारे कोऽपि भेदभावः नैव भवितव्यः। प्रधानमन्त्री भाजपेति दलस्य च वरिष्ठनेता नरेन्द्रमोदी कांग्रेसदले आक्षिप्तवान् यत् एतद्दलं धार्मिकारक्षणं निध्याय संविधानपरिवर्तनम् इच्छति। एकस्मिन् सर्वकारीयेतर वार्तावाहिन्यै प्रदत्ते साक्षात्कारे श्रीमोदी प्रावोचत् यत् अनेन तस्य च प्रशासनेन कदापि न भाषितः यत् तस्य प्रशासनं संविधानपरिवर्तनं करिष्यति। तेनोदीरितं यत् अभिव्यक्ति स्वतन्त्रतायां परिवर्तनं कृत्वा कांग्रेस दलेन पूर्वमेव संविधानस्य मूलभावना घातिता। अद्य सर्वोच्चन्यायालयेन मद्यनीति प्रवञ्चना सम्बन्धे जाते प्रकरणे दिल्ल्याः मुख्यमन्त्रिणे अरविन्द केजरीवालाय एकविंशतिः दिवसेभ्यः अल्पकालिक मुक्तिः प्रदत्ता। अनेन शीर्षन्यायालयेन आपदलप्रमुखः सप्तमचरणस्य लोकसभा निर्वाचनस्य समाप्तेरनन्तरं एकदिवसानन्तरम् एव जूनमासस्य द्वितीये दिनांके आत्मसमर्पणाय कथितः। अवधेयं वर्तते यत् केजरीवालेन प्रचल्यमाणस्य लोकसभा निर्वाचनस्य प्रचाराय मुक्ति याचिका अभ्यर्थिता। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। अद्य उत्तराखण्डे पवित्रा चतुर्धाम यात्रा प्रारम्भा। अक्षय तृतीयायाः शुभावसरे केदारनाथ गंगोत्री यमुनोत्री इत्येतेषां पवित्र द्वाराणि श्रद्धालूनां तीर्थयात्रीणां च कृते उद्घाटितानि। अद्य प्रातः केदारनाथ धाम्नः द्वारं वैदिक मन्त्रोच्चारणैः पारम्परिकानुष्ठानादिभिः च उद्घाटितम्, येन चतुर्धाम यात्रा समारब्धा। भक्तानां सम्मर्दम् अवलोक्य मुख्यमंत्री पुष्कर सिंह धामी तीर्थयात्रीणां कृते अन्ताराज्यीय अन्ताराष्ट्रिययोः सौविध्यानां संवर्धनाय सर्वकारस्य दृढ़ प्रतिबद्धतां बोधितवान्। केदारनाथ देवालये उद्घाटन समारोहः प्रातः ऊनविंशति निमेषाधिक दशवादने यमुनोत्री तीर्थद्वारस्य अनावरणं कृतम्, तदनन्तरं मध्याह्ने गंगोत्री धामद्वारस्य उद्घाटनं जातम्। भारतं फ्रांस देशे भविष्यमाणे 77वें कांस चलचित्र महोत्सवे भागं स्वीकरिष्यति। फ्रांस देशे अयं महोत्सवः मासस्यास्य 14 दिनांकतः 25 दिनांकपर्यन्तं प्रचलिष्यति। भारत सर्वकारस्य भारतीय प्रतिनिधिमण्डलस्य राज्य सर्वकारस्य उद्योगस्य च सचिवाः सम्मिलिताः वर्तन्ते, ये विश्वस्य चलचित्रापणे अस्मिन् भारतस्य रचनात्मक अर्थव्यवस्थां प्रदर्शयिष्यन्ते। सूचना प्रसारण मन्त्रालयः कथितवान् यत् भारतदेशः प्रथमवारं कांस चलचित्र महोत्सवे एतस्मिन् भारत पर्व इत्येतस्याथितित्वं भजिष्यति। रूसदेशे राष्ट्रपतिना व्लादिमीर पुतिनेन अद्य मिखाइल मिशुस्तिन इत्यस्मै देशस्य प्रधानमन्त्रीपदाय पुनर्नियुक्तेः प्रस्तावः प्रदत्तः। रूसदेशस्य संसदः अध्यक्षेण व्याचेस्लाव बोलोडिन इत्यनेन घोषितं यत् अन्यस्मिन् सत्रे मिशुस्तिनस्य स्टेक ड्यूमा पक्षे अभ्यर्थी विषये चर्चा पश्चादेव भविष्यति। रूसस्य कर सेवायाः पूर्व प्रमुखः मिशुस्तिन विगत चतुर्वर्षेभ्यः एतत् कार्यं निर्वहति। सः गत मंगलवासरे स्वमन्त्रिमण्डलस्य त्यागपत्रं प्रदत्तवान्, यदा श्रीपुतिनः पञ्चमं राष्ट्रपति पदस्य कार्यकालस्य आरम्भः कृतवान्। क्रिमिनल नियन्त्रित संसदि मिशुस्तिनस्य समर्थनं केवलं औपचारिकमेव। केरलतः आवर्त देशेभ्यः प्रचल्यमाणाः एयर इंडिया एक्सप्रेस विमान सेवाः अद्यापि बाधिताः, यद्यपि कर्मचारी विमान सेवा प्रबन्धनयोः च मध्ये पारस्परिकी मन्त्रणापि समनुष्ठिता। अद्य प्रातः कोचीन अन्तर्राष्ट्रिय विमान स्थानके दम्मम मस्कट नगरयोः विमानयानानि निरस्तीकृतानि सन्ति। कुन्नूर अन्ताराष्ट्रिय विमान स्थानके सारजाह मस्कट दम्मम दुबई रियाद अबुधाबी इत्यादीनां कृते विमान सेवाः निरस्ताः। तिरुवनन्तपुरम तः मस्कट दोहा नगरं प्रति अन्ताराष्ट्रिय विमानयानानि अपि निरस्तीकृतानि सन्ति। कलिकट अन्ताराष्ट्रिय विमानस्थानकेन अन्ताराष्ट्रिय क्षेत्रे 5 विमानयानानि निरस्तीकृतानि सन्ति। राष्ट्रिय महिलायोगेन अद्य निर्वाचनायोगेन कथितं यत् सन्देशखालीस्थले तत्रस्थ महिलाभ्यः तृणमूल कांग्रेस दल कार्यकर्तृभिः प्रदत्त संचेतनायाः कारणेन महिलाभिः स्वीय परिवेदना न परावर्तितव्या। निर्वाचनायोगाय लिखिते एकस्मिन् पत्रे महिलायोगेन निष्पादितं यत् सन्देशखालीस्थानके महिलाः लोकसभा निर्वाचनस्य समये स्वीय परिवेदना प्रत्यावर्तनाय प्रभाविताः क्रियन्ते, मानसिक बलमपि प्रदीयन्ते। आयोगेन उचित कार्याचरणाय अपि निर्देशः प्रख्यापितः। आईपीएल इत्यस्यां क्रिकेट प्रतिस्पर्धायाम् अद्य अहमदाबादस्य नरेन्द्र मोदी क्रीडांगणे गुजरात टाइटन्स चेन्नई सुपर किंग्स दलयोः मध्ये स्पर्धा भविष्यति। स्पर्धायाः प्रसारणं 7:30 भविष्यति। गतरात्रौ हिमाचल प्रदेशे धर्मशालायाम् आयोजिते द्वन्द्वे रॉयल चैलेंजर्स बेंगलुरु दलेन पंजाब किंग्स दलं 60 धावनांकैः पराजितम् इति वार्ताः।